एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। सर्वकारेण आगामिनः आर्थिकवर्षस्य आर्थिकं सर्वेक्षणं संघीय संसदि प्रस्तुतमस्ति। संघीय संसदः प्रतिनिधिसभायाः राष्ट्रियसभायाश्च पृथक् पृथक् उपवेश्य आर्थिकं सर्वेक्षणं प्रस्तुवन् अर्थमन्त्री डॉ सोनी मुवागले वर्तमानार्थिकवर्षे देशस्य अर्थतन्त्रं 10.85%-ने विस्तार्यते इत्यनुमितमस्ति इति असूचयत्। देशस्य अर्थतन्त्रस्य आकारः 66 खर्ब रूप्यकाणि, प्रतिजनं राष्ट्रिय आयः 1,535 अमेरिका देशीय डॉलर मुद्रा भविष्यति इति अनुमितमस्ति इति असौ अज्ञापयत्। अर्थमन्त्री डॉ वागले देशस्य सामाजिक आर्थिक सूचकेषु सुधारः सम्भूतोऽस्ति इति चर्चयन् फाल्गुन मासं यावत् संघीय राजस्वं 10.3%-ने वर्धितमस्ति इति अज्ञापयत्। अस्मिन् नवधौ सर्वकारेण आन्तरिकं बाह्यञ्च संहत्य 3 खर्ब सार्वजनिकं ऋणं गृहीतमस्ति इति मन्त्री वागले असूचयत्। सर्वकारेण आगामिनः आर्थिकवर्षस्य राजस्वस्य व्ययस्य च वार्षिकमनुमानं श्वो ज्येष्ठमासस्य 15 दिवसे अपराह्न 4 वादने संघीय संसदः द्वयोः सदनयोः संयुक्तोपवेशे प्रस्तोष्यते। प्रतिनिधिसभायाः सभामुखेन डोल प्रसाद अर्यालेन, राष्ट्रियसभायाः अध्यक्षेण नारायण प्रसाद दाहालेन च श्वो ज्येष्ठमासस्य 15 दिवसे 4 वादने संघीय संसदः द्वयोः सदनयोः संयुक्तोपवेशे अर्थमन्त्रिणा डॉ सोनी मुवागले विधेन सर्वकारस्य आगामिनः आर्थिकवर्षस्य आयव्ययकं प्रस्तोष्यते इति विज्ञापितमासीत्। आयव्ययकस्य प्रस्तुतेः पूर्वं पादून 4 वादने एव सांसदः संसदि उपस्थातुं निर्दिष्टः सन्ति। ज्येष्ठमासस्य 15 दिवसे अर्थमन्त्रिणा सोनी मुवागले विधेन आगामिनः आर्थिकवर्षस्य कृते आयव्ययकं प्रस्तोष्यते। प्रतिनिधिसभायाः स्थनोपवेशेन राष्ट्रियसभायामुत्पन्नं गतविक्रमवर्षीयं चलचित्र विधेयकं सर्वसम्मत्या स्वीकृतं वर्तते। राष्ट्रियसभायामुत्पन्नं गतविक्रमवर्षीयं चलचित्र विधेयकम् अधिकृत्य विहितस्य विमर्शनस्य क्रमे उत्थापितान् प्रश्नान् उत्तरयन् सूचना संचार मन्त्री डॉ विक्रम तिमिलसिन्हा पर्याप्तं विमृश्य विधेयकं सबलं समय सापेक्षं च कृत्वा अग्रे वर्धितुं शक्यते इति अगदत्। उपवेशे मन्त्री डॉ तिमिलसिन्हा विधेयकमेतत् पूर्ववर्तिना सर्वकारेण निर्मितमस्ति, राष्ट्रियसभायामुत्पन्नं च वर्तते इत्यतः चलचित्र विधेयके वर्तमान सर्वकारेण कोऽपि विषयः समाविष्टः न सन्ति इति चर्चयन् विधेयकम् आधृत्य विहिते विमर्शने उत्थापितेषु विषयेषु ध्यानाकर्षणं सम्भूतमस्ति इति उदैरयत्। एवमेव प्रतिनिधिसभायाः स्थनोपवेशे सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् कृषि वन पर्यावरण मन्त्री गीता चौधरी वर्षायामि धान्य कृषे रोपणाय मलस्य अभावो मास्तु इत्यर्थं मन्त्रालयेन व्यवस्थापनं विधीयमानमस्ति इति असूचयत्। तदवसरे मन्त्री चौधरी सर्वकारेण कृषकेभ्य अनुदान सहयोगं कृत्वा रासायनिक मलं प्रदीयमानमस्ति, वर्तमानार्थिक वर्षे अधुनावधि 5,54,363.7 चेति मैट्रिक टन परिमितस्य मलस्य आपूर्तिः विहिता अस्ति इति सूचितवती। उपवेशे मन्त्री चौधरी अधुना 1,44,85.5 चेति मैट्रिक टन परिमितं रासायनिक मलं भण्डारे अस्ति, वर्तमानार्थिक वर्षस्य आषाढ़ मासान्तं यावत् आसन्न 6,00,000 मैट्रिक टन परिमितं मलं कृषकेभ्य अनुदान सहयोग रूपेण प्रदास्यते इति च अज्ञापयत्। उपवेशे सांसदै उत्थापितानां प्रश्नानाम् उत्तरं प्रयच्छन्ति उद्योग वाणिज्य आपूर्ति मन्त्री गौरी कुमारी। नेपाले प्रतिवर्षम् आसन्न 1,61,00,000 च किलो परिमितः चाय पदार्थ उत्पद्यते इति असूचयत्। उपवेशे सांसदैः सामयिक विषयेषु सर्वकारस्य ध्यानाकर्षणं विहितं च आसीत्। प्रतिनिधिसभायाः अपरोपवेशः श्व शुक्रवासरे अपराह्नस्य 5 वादने वस्ता। राष्ट्रिय सभायाः स्थानोपवेशन एतत् विक्रमवर्षीयं प्रतिनिधिसभा सदस्य निर्वाचन सम्बद्धं संशोधन विधेयकम् एतत् विक्रमवर्षीयं मतदातृ नामावली प्रथम संशोधन विधेयकं चाधृत्य विचारितामिति निगद्य प्रस्तुतः प्रस्तावः स्वीकृतोऽस्ति। उपवेशे प्रधानमन्त्रिणः बालेन्द्र शाहस्य पक्षतः विधि न्याय संसदीय विषय मन्त्रिणा सोविता गौतमेन प्रस्तुतं विधेयकम् आधृत्य विहितस्य विमर्शनस्य अनन्तरं प्रस्तावोऽयं सर्वसम्मत्या स्वीकृतः। उपवेशे विधि मन्त्री गौतमः सांसदैः उत्थापितान् प्रश्नान् उत्तरयन्ति। राष्ट्रिय जनगणनायाः अनुसारेण जनसंख्यायाः आधारेण च प्रतिशतं निर्धारितमस्ति इति सूचितवती। तत्पूर्वं राष्ट्रिय सभायाः स्थानोपवेशे सांसदाः आराष्ट्रं विभिन्नेषु जनपदेषु वानरेभ्यः अन्येभ्यः वन्यजन्तुभ्यश्च कृषकाः पीडिताः सन्ति इति विषये सर्वकारस्य ध्यानम् आकृष्टवन्तः। इस्लाम धर्मावलम्बिनां द्वितीयं महत् बकर ईद इत्याख्ययम् ईद उल जुहा पर्व अद्य आराष्ट्रं मस्जिद प्रार्थना गृहेषु समायोज्यमानमस्ति। ईद उल फित्र अर्थात रमजान पर्वणः सप्ततितमे दिने बकर ईद पर्वणः समायोजनस्य धार्मिक विधि वर्तते। अद्य इस्लाम धर्मावलम्बिभिर्जनै प्रातः स्नात्वा समीपवर्तिनं मस्जिद ईदगाह प्रार्थना गृहं गत्वा सामूहिक रूपेण नमाज पठनस्य परम्परा वर्तते। नमाज इति पठनानन्तरं परस्परं शुभकामनायाः आदान प्रदानं विधीयते। अवसरेऽस्मिन् काष्ठमण्डपस्य दरबार मार्गवर्तिने नेपाली जामे मस्जिद गृहे काश्मीरी मस्जिद गृहे आराष्ट्रं विद्यमानेषु अन्येषु मस्जिद प्रार्थना गृहेषु इस्लाम धर्मावलम्बिनां सम्मर्दो भवति। अवसरेऽस्मिन् अद्य सर्वकारेण सार्वजनिकावकाशः प्रदत्तो वर्तते। अवसरेऽस्मिन् राष्ट्रपतिना रामचन्द्र पौडेलेन उपराष्ट्रपतिना रामसहाय प्रसाद यादवेन अन्यै उच्च पदाधिकारिभिश्च शुभकामना सन्देशाः व्यक्ताः वर्तन्ते। सूचना संचार मन्त्रिणः डाक्टर विक्रम तिमिलसिन्हाभिदस्य संयुक्त राष्ट्र संघस्य अन्तर्गतस्य अन्तर्राष्ट्रिय दूरसंचार संघस्य दक्षिण पूर्व एशिया एशिया प्रशान्त क्षेत्रस्य च सदस्य राष्ट्राणां कृते क्षेत्रीय प्रतिनिधे किशोरबाबु युरावल्ला इत्यस्य च मध्ये ह्य शिष्टाचार मेलवार्ता सम्भूता अस्ति। मेलने अनयोर्मध्ये नेपालस्य प्रविधे समावेशितायाः परस्पर सम्बन्धस्य स्थिरतायाः सूचना प्रविधेः विकासस्य च विषयेषु विमृष्टमस्ति इति ज्ञापितं वर्तते। इति समाचारः।